नमः सर्वेभ्यः। अद्य कोविदवर्गस्य चतुर्दशः पाठः, मे मासस्य एकादशः दिनाङ्कः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये, जगतः पितरौ वन्दे पार्वती परमेश्वरौ। गतवर्गे वयं रघुवंशस्य मङ्गलश्लोकम् अधीतवन्तः। तत्र पदविभागं कृत्वा पदपरिचयं किञ्चित् प्राप्य आकाङ्क्षाक्रमेण अन्वयं कृत्वा प्रत्येकं पदस्य अर्थं ज्ञात्वा तत्र के व्याकरणांशाः इति सर्वं दृष्टवन्तः। कः अलङ्कारः, किं छन्दः इत्यपि ज्ञातम्। संक्षेपेण वक्तव्यं चेत्, वागर्थाविव सम्पृक्तौ जगतः पितरौ पार्वतीपरमेश्वरौ वागर्थप्रतिपत्तये वन्दे इति श्लोकस्य अन्वयः। यौ पार्वतीपरमेश्वरौ उमामहेश्वरौ शब्दार्थौ इव नित्यसम्बद्धौ लोकस्य मातापितरौ, तौ अहं नमामि। किमर्थं शब्दार्थयोः सिद्ध्यर्थम् इति श्लोकस्य अर्थः। अद्य अन्तिमः एकः अवशिष्यते अंशः, श्लोकस्य अध्ययनक्रमः यः अस्माभिः दृष्टः, तत्र व्याख्यानम् इति एकः अंशः अवशिष्यते। तद्विषये ज्ञानात् पूर्वं गृहकार्यरूपेण केचन प्रश्नाः दत्ताः आसन्। रघुवंशस्य मङ्गलश्लोकं विलिख्य तस्य अन्वयं भावार्थं च लिखत। इदानीमेव यद्दर्शितं तदेव लेखनीयम्। श्लोकः कः अन्वयः, कः भावार्थः इति। रघुवंशस्य मङ्गलश्लोके कः अलङ्कारः वर्णयत, कोऽपि वक्तुमिच्छति कः अलङ्कारः, तत्र के अवयवाः इति। जयश्री भगिनि।
नमस्ते भगिनि। उपमा अलङ्कारः अस्ति, उपमेय पार्वतीपरमेश्वरौ, उपमानं वागर्थौ, इव इति सादृश्यदर्शकशब्दः अस्ति, नित्यसम्बद्धत्वं साधारणधर्मः अस्ति।
सम्यक्। अतः पूर्णोपमा अलङ्कारः अत्र अस्मिन् श्लोके विद्यते। उत्तमम्। अग्रे अमरकोशात् एतेषां पदानां पर्यायपदानि अन्विष्य लिखत इति दत्तमासीत्। पार्वती इत्यस्य पर्यायपदानि, महालक्ष्मी,
उमा, कात्यायनी, गौरी, काली, हेमवती, ईश्वरी, शिवा।
अस्तु, अस्ति, तदेव शिवा, भवानी, रुद्राणि इत्यादि अस्ति। तत्र अपर्णा, पार्वती, दुर्गा इत्यत्र पार्वत्याः पर्यायः अस्ति। सम्यक्। अपर्णा, पार्वती, दुर्गा, मृडानि, चण्डिकाम्बिका। ईश्वरः इति पदस्य पर्यायपदानि, राधा भगिनी।
नमस्ते भगिनि। ईश्वरः, शिवः, पशुपतिः, शूलि, महेश्वरः, शेखरः,
चन्द्रशेखरः,
मृत्युञ्जयः इत्यादि।
सम्यक्। अमरकोशे किं वाक्यं, कोऽपि जानाति वा? ईश्वरः इति पदं नो प्रोब्लम्, वील् अप्लोड् द इन्स्ट्रक्षन्स् दिस् वीक्, महोदय हस् गिवन्। सो फार् द सर्चबल् अमरकोश वील् गिव् द इन्स्ट्रक्षन्स्, अप्लोड् द इन्स्ट्रक्षन्स् दिस् वीक्। राजेश् महोदय।
अमरकोश, ईश्वरः, शर्व, ईशानः, शङ्करश्च, शङ्करश्चन्द्रशेखरः,
सम्यक्। ईश्वर शर्व ईशानः शंकरश चंद्रशेखरः बहूनि नामानि सन्ति तत्र शंभुरीशः पशुपतिः इति आरभ्य ईश्वरः शर्वः ईशानः शंकरः चंद्रशेखरः इत्येतावन्ति नामानि सन्ति। अग्रे शब्दः शब्दः इति शब्दस्य के पर्यायाः सन्ति अमरकोशे? सद्विचाराः भवतः नाम न ज्ञायते, यू टु अन्म्यूट् युर् सेल्फ्। न श्रूयते, सम्यक्। शब्दे निनाद निनद ध्वनि ध्वान रव स्वनाः इति अमरकोशस्य वाक्यं। शब्दः निनादः निनदः ध्वनिः ध्वानः रवः स्वनः इत्येते शब्दः इत्यस्य पर्यायपदानि सन्ति। उत्तमम्। अग्रे रिक्तस्थानपूरणं वागर्थौ इत्यत्र कः समासः? सुजाता भगिनी।
हरि ओम्। वाक् च अर्थः च द्वन्द्वः समासः।
द्वन्द्वसमासः, उत्तमं। वाक् च अर्थः च वागर्थौ इत्यत्र द्वन्द्वसमासः। पितरौ इत्यस्य विग्रहः सुब्रह्मण्यं महोदय।
नमस्ते। माता च पिता च द्वन्द्वसमासः।
अत्र तु द्वन्द्वः नास्ति, एकशेषः। मातापितरौ इत्यस्ति चेत् द्वन्द्वसमासः, पितरौ इत्यत्र एकशेषः। माता च पिता च इति विग्रहः। पितरौ यदि द्वन्द्वसमासं कुर्मः तदा मातापितरौ इति रूपं भवति, एकशेषं कुर्मः चेत् पितरौ इति भवति। रामनाथन् महोदय, प्रतिपत्तिः इत्यत्र कः प्रत्ययः? कः प्रत्ययस्य नाम? चिन्ता नास्ति, अन्ये केऽपि जानन्ति वा? मञ्जु गुप्ता, मञ्जु गुप्ता न श्रूयते। राज आचार्य महोदय।
नमस्ते महोदय। प्रति पद क्तिन् प्रत्ययः अस्ति अत्र।
क्तिन् प्रत्ययः, सम्यक्। क्तिन् प्रत्ययः सामान्यतः यत्र यत्र वयं ति इति शृणुमः, कृतिः मतिः गतिः भक्तिः, सामान्यतः तत्र क्तिन् इति प्रत्ययः। वन्दे अत्र मूलधातुः कः? रामानुजं महोदय।
नमस्ते। वन्द् धातुः आत्मनेपदी, लट् लकारः, उत्तमपुरुष एकवचनं।
सम्यक्। तस्य धातुपाठे धातुः कथं भवति?
यु टोल्ड् इट् इन् द क्लास्। वद्
वदि
वदि,
चिन्ता नास्ति। वदि अभिवादनस्तुत्योः इति धातुः, तत्र वन्द् इति जानीमः। सम्यक्। पार्वती इत्यस्य विग्रहवाक्यं किम्? राधा भगिनी।
पर्वत्याः अपत्यं स्त्री।
पर्वतस्य अपत्यं स्त्री,
अपत्यं स्त्री पार्वती।
सम्यक्। पर्वतस्य अपत्यं स्त्री पार्वती, उत्तमम्। अद्य अन्तिमः अंशः आसीत् व्याख्यानतः विशेषांशाः इति। व्याख्यानं नाम किं, व्याख्यानेन किं क्रियते इति पश्यामः. व्याख्यानम् इति अस्माकं संस्कृतग्रन्थपरम्परायाः एकः विशिष्टः प्रकारः. अस्माकं परम्परायामेव मूलग्रन्थापेक्षया प्रायः व्याख्यानानां प्रामुख्यं बहु विद्यते. सो द ट्रेडिशन् आफ् कमेण्टरीस् इस् हैलि रेस्पेक्टेड् इन् अवर् इन् द संस्कृत वर्ल्ड्. शास्त्राणां वा भवतु, काव्यानां वा भवतु, केवलस्य मूलग्रन्थस्य अध्ययनम् इति अस्माभिः न क्रियते. सामान्यतः प्रामाणिकं व्याख्यानम् आश्रित्य एव ग्रन्थानाम् अध्ययनं क्रियते. यत् किमपि वा भवतु, यथा सूत्रं, वार्तिकं, भाष्यम् इति भवति. अतः भाष्यम् इत्युक्ते सूत्राणां व्याख्यानमेव. एवञ्च सर्वेषामपि ग्रन्थानां व्याख्यानाधारेणैव अध्ययनम् अस्माकं परम्परायाम् अस्ति. किमर्थं, किं किं क्रियते, किं प्रयोजनं व्याख्यानस्य इत्यत्र एका कारिका अस्ति. व्याख्यानं पञ्चलक्षणम्: परच्छेदः, पदार्थोक्तिः, विग्रहः, वाक्ययोजना, आक्षेपस्य समाधानं. व्याख्यानं पञ्चलक्षणम् इत्युच्यते. इत्युक्ते व्याख्यानेन किं किं क्रियते. पदच्छेदः, पदविभागः, तत्र कानि कानि पदानि सन्ति इति विभज्य प्रदर्श्यते. पदार्थस्य उक्तिः, पदानां कः अर्थः इति अर्थकथनं भवति. विग्रहः, तत्र समासस्य, तद्धितस्य, सर्वेषां वृत्तीनां विग्रहः प्रदर्श्यते. वाक्ययोजना, वाक्यक्रमेण कथम् अन्वयः इत्यपि व्याख्याने प्रदर्श्यते. आक्षेपस्य समाधानम्, सम्भावितानां पूर्वपक्षाणाम् उत्तरम्. तत्र काव्येषु अधिकतया न, किन्तु शास्त्रेषु यदा व्याख्यानानि पश्यामः, अनेन ग्रन्थकर्त्रा एवमेव किमर्थं लिखितं, किमर्थम् अन्यप्रकारेण न लिखितम्, अस्य पदस्य कः आशयः, अन्येषां कुत्रापि आक्षेपः अस्ति चेत् तत्र किं समाधानम् इति बहु चर्चा क्रियते व्याख्याने. व्याख्यानस्य पठनेन तस्य एकस्य वाक्यस्य फुल् हिस्ट्री यु गेट्. इट् इस् लैक् द एण्टैर् डिस्कशन् रिगार्डिङ्ग् अ पायिण्ट् इस् समरैज्ड् इन् अ व्याख्यान. तत्र कः कः प्रश्नः, तत्र किं समाधानम् इत्यादि. एवं पञ्चलक्षणानि भवन्ति व्याख्याने. अतः कस्यचिद् विचारस्य समग्रदृष्टिः व्याख्यानस्य अध्ययनेन प्राप्तुं शक्यते. तत्र वयं रघुवंशस्य व्याख्यानम् इति पश्यामः चेत् एकमेव व्याख्यानम् इति न, बह्व्यः व्याख्याः सन्ति. सञ्जीविनी इति मल्लिनाथस्य व्याख्यानमस्ति, रघुवंशदर्पणम् इति भट्टहेमाद्रेः, पञ्जिका इति वल्लभदेवस्य, सुबोधिनी इति दिनकरमिश्रस्य, शिशुहितैषिणी इति चारित्रवर्धनस्य, सुगमान्वया इति सुमतिविजयस्य, इत्येवं बहूनि व्याख्यानानि सन्ति रघुवंशस्य. किन्तु एतेषु सर्वेषु व्याख्यानेषु प्राधान्यम् आवहति मल्लिनाथकृता सञ्जीविनी व्याख्या. So it is the best and the most popular commentary for Raghuvamsha. Tatra Mallinathasya vishaye api gnyatavyam bahu asti. Yatohi Mallinathaha prakanda panditaha. Tasya Mahamahopadhyayaha ityeva tasya birudam diyate. Bhinneshu shastreshu tasya vaidushyam asit. पञ्चानामपि महाकाव्यानां प्रामाणिकं व्याख्यानं मल्लिनाथेन रचितमस्ति. तदेव तस्य वैशिष्ट्यं. वयं पूर्वतनवर्गे ज्ञातवन्तः पञ्चमहाकाव्यानि प्रसिद्धानि सन्ति: रघुवंशं, कुमारसम्भवं, किरातार्जुनीयं, शिशुपालवधं, नैषधीयचरितम् इति. पञ्चानामपि व्याख्यानं तेन रचितमस्ति मल्लिनाथेन. सञ्जीविनी इति रघुवंशस्य, कुमारसम्भवस्य उभयोः व्याख्यानस्य समानं नाम. घण्टापथः इति किरातार्जुनीयस्य, सर्वङ्कष इति शिशुपालवधस्य जीवातुः इति नैषधीयचरितस्य व्याख्यानं रचितमस्ति. न केवलम् एतावत् मेघदूतस्य व्याख्यानमस्ति, भट्टिकाव्यस्य व्याख्यानमस्ति. व्याख्यानपरम्परायां मल्लिनाथस्य नाम अग्रगण्यम् अस्ति. अस्यार्थः सः केवलम् इतरेषां ग्रन्थानां व्याख्यानं रचयति स्म इति न. मल्लिनाथः स्वयं पण्डितः, स्वतन्त्रकाव्यानि रचितवान् अस्ति, शास्त्रग्रन्थानपि रचितवान् अस्ति. तथापि तेषां तस्य व्याख्यानानि अत्यन्तं जनप्रियाणि सन्ति. तत्र कारणं किम् इत्यपि अग्रे एव जानीमः. मल्लिनाथस्य वैदुष्यं सौजन्यञ्च तस्य वचनादेव ज्ञातुं शक्यते. सः रघुवंशव्याख्यानस्य आदौ एकं पद्यं लिखति, बहु सुन्दरं, सुन्दरः श्लोकः. वाणीं काणभुजीमजीगणदवाशासीच्च वैयासकीम् अन्तस्तन्त्रमरं स्तपन्नगदवी गुम्फेषु चाजागरीत् वाचामाकलयद्रहस्यमखिलं यश्चाक्षिपादस्फुराम् लोके भूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः. सः वदति केषु केषु शास्त्रेषु तस्य वैदुष्यम् इति किञ्चित् कथयति. काणभुजि, कणादः, वैशेषिकशास्त्रस्य मूलपुरुषः कणादः. अतः कणादस्य वैशेषिकदर्शने वैयासकीं, व्यासस्य वचने, व्यासस्य सूत्राणि, ब्रह्मसूत्राणि, मीमांसा, उत्तरमीमांसाशास्त्रस्य आधारभूतं तन्त्रशास्त्रं पन्नगगवीगुम्फेषु नाम व्याकरणे. पन्नगः इत्यनेन पतञ्जलिः कथ्यते, शेषावतारः. व्याकरणे तस्य महत्पाण्डित्यम्. अक्षिपादः, अक्षिपादः गौतमः न्यायशास्त्रस्य आचार्यः. अतः न्यायशास्त्रे एवं न्यायदर्शनं, वैशेषिकदर्शनं, व्याकरणं, तन्त्रम्, उत्तरमीमांसा इति सर्वेषु अपि शास्त्रेषु तस्य पाण्डित्यं. तथापि सौजन्यजन्यं यशः. मल्लिनाथस्य कीर्तिः सर्वमपि ज्ञानम् अतिरिच्य सौजन्येन तस्य कीर्तिः सर्वत्र प्रसृता. So he makes this point, humility or good nature was his first qualification. Yadyapi sarveshu shastreshu panditya asit, tat sarvam api atirichya saujanya janyam yashaha vidusham upagyam, vidusham vidvat paramparayam, tat tenaiva saujanya janyasya janyayaha kirtehe upakramaha jataha iti swayam kathayati saha. मल्लिनाथ कविस्सोऽयं मन्दात्मानुजिघृक्षया व्याचष्टे कालिदासीयं काव्यत्रयमनाकुलम्. मल्लिनाथ कविः कालिदासस्य काव्यत्रयं व्याचष्टे, रघुवंशस्य, कुमारसम्भवस्य, मेघदूतस्य च व्याख्यानं तेन रचितमस्ति. तेन रचितः अन्यः श्लोकः अत्यन्तं प्रसिद्धः, कालिदासगिरांसारं कालिदाससरस्वती चतुर्मुखोऽथवा साक्षात्. क्षम्यतामत्र टङ्कनदोषः अस्ति. चतुर्मुखोऽथवा साक्षाद् विदुर्नान्येतु मादृशाः. मल्लिनाथः कथयति कालिदासगिरां सारं, कालिदासस्य वचनानां सारं के के ज्ञातुं प्रभवन्ति इति चेत् साक्षात् कालिदासः. सः स्वयं लिखितवान्, अतः सः जानाति. अथवा सरस्वती, वाग्देवी स्वयं ज्ञातुं शक्नोति. अथवा साक्षात् चतुर्मुखः, वाणीपतिः ब्रह्म, सः वा ज्ञातुं शक्नोति. विदुः, विदन्ति, विदुः इत्यस्य जानन्ति इत्यर्थः. न अन्ये तु मादृशाः, मत्सदृशाः तु कालिदासस्य वचनानां सम्पूर्णं सारं ज्ञातुं नैव शक्नुवन्ति इति मल्लिनाथः कथयति. तर्हि वयं किं वा कथयामः? मल्लिनाथस्य व्याख्यानम् अत्यन्तं प्रामाणिकं, सर्वैः अङ्गीकृतम् इति उक्तं. तत्र किं कारणम् इति चेत्, सः व्याख्यानस्य आदौ कथयति, इहान्वयमुखेनैव सर्वं व्याख्यायते मया, नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते. इह अत्र नाम व्याख्याने अन्वयमुखेनैव सर्वं व्याख्यायते, अन्वयक्रमेणैव सम्पूर्णं व्याख्यानं क्रियते, अमूलं किञ्चित् न लिख्यते, मूले यत् नास्ति नाम स्वीयम् अभिप्रायं वा स्वीयम् इष्टं वा योजयित्वा किमपि न लिखामि, न अनपेक्षितम् उच्यते, तत्र प्रसंगात् दूरापास्तं किमपि न कथ्यते। वयं पश्यामः बहूनि व्याख्यानानि भवन्ति, तत्र कदाचित् ओवर् कमेण्टेटिङ्ग् इस् अ प्रोब्लम्, बहु अधिकं लिखन्ति व्याख्याकर्तारः, अथवा स्वस्य या इच्छा तत् ग्रन्थकर्तुः उपरि आरोपयन्ति, तादृशं बहुषु व्याख्यानेषु भवति। सो देर् आर् सम् व्याख्यानस् वेर् वि फील् दट् इट् इस् रीडिङ्ग् टू मच् इन् टु द पोयेट्स् वर्ड्स् आर् डूयिङ्ग् अ लाट् आफ् एक्स्ट्रा इण्टर्प्रिटेशन् वेर् इट् इस् नाट् रिक्वैर्ड्। तादृशं न करोमि इति मल्लिनाथः आदौ एव प्रतिज्ञां करोति, अमूलं किञ्चिदपि न लिख्यते, अनपेक्षितं न उच्यते। अत एव मल्लिनाथस्य व्याख्यानम् अत्यन्तं प्रामाणिकम्, अण्ड् हि फालोस् इट्। सर्वत्र सः वदति, बहु अधिकम् इति न वदति, किन्तु यद्यद् वक्तव्यं, यत्र यत्र कवेः वैशिष्ट्यस्य प्रतिपादनं कर्तव्यं, तत्सर्वमपि बहु सम्यक् करोति। अत एव मल्लिनाथस्य व्याख्यानं सर्वादृतमस्ति। वयं मल्लिनाथस्य व्याख्यानं स्वीकृत्य किञ्चित् अध्ययनं कुर्मः। एतत्तु परीक्षादृष्ट्या अनपेक्षित, तत्तु स्पष्टं कथयामि। परीक्षायां तु निश्चयेन न पृच्छ्यते, किन्तु मम अयमपि विश्वासः, ये अस्मिन् स्तरे पठन्ति तेषां प्रायेण परीक्षालक्ष्यं न भवति इति अनुभवः। वयं सर्वे तु संस्कृतज्ञानार्थमेव पठामः, तत्र विशिष्य अग्रे यदा पठनीयं, स्वातन्त्र्येण ग्रन्थाः पठनीयाः इत्यादि भवति, यतोहि भवत्सु बहवः कोविदपरीक्षामतीत्य अग्रे स्नातकोत्तर स्तरे एम् ए इत्यादि कुर्युः, पि एच् डि इत्यादि कुर्युः, अथवा स्वयं शास्त्राध्ययनं कुर्युः, तत्र सर्वत्रापि व्याख्यानस्य ज्ञानम् अति अपेक्षितं भवति इत्यतः मया किञ्चित् विस्तरेणैव उच्यते। व्याख्यानं कथं भवति इति ज्ञानमपि आवश्यकम्, यतोहि वयम् आरम्भिकस्तरेषु सामान्यतः व्याख्यानं न पठामः, कथं भवति व्याख्यानम् इत्यपि बहूनां ज्ञानं न भवति। कदाचित् पुस्तकं दृश्यते किन्तु कथं पठनीयम् इति न ज्ञायते, तदर्थं किञ्चिदुच्यते। मूलं व्याख्यानम् इत्येतयोः अन्तरम्, पूर्वतनकाले यदा ताडग्रन्थादयः आसन् तदा तु तत्र न कोऽपि विशेषः आसीत्, इत्युक्ते इट् वास् जस्ट् अ कण्टिन्यूस् रैटिङ्ग्, कुत्र मूलं कुत्र व्याख्यानम् इत्यादि किमपि न ज्ञायते स्म। किन्तु एषु दिनेषु अस्माकम् इदमानुकूल्यं यत् ये एडिटिङ्ग् कृत्वा ग्रन्थान् प्रकाशयन्ति ते तत्र बहु सम्यक् फार्मेटिङ्ग् बहु सम्यक् क्रियते, येन वयं स्पष्टं ज्ञातुं शक्नुमः मूलं किं व्याख्यानं किम् इति। सो सामान्यतः पश्यामः चेत् मूलं बोल्ड् मध्ये भवति, तस्य अधः यद्भवति तद्व्याख्यानम्। एतत्तु एकम् उदाहरणरूपेण दर्श्यते, तत्र मूले संख्यासहितं श्लोकः अस्ति, तदेव मूलं, तस्य अधः न्यूनतर सैज़्, सो लेसर् सैज़् अण्ड् नाट् बोल्ड्, तत्सर्वमपि व्याख्यानं भवति। सामान्यतः काव्यानां व्याख्याने एवं श्लोकः श्लोकस्य व्याख्यानं, श्लोकः श्लोकस्य व्याख्यानम् इत्येवं दीयते। किन्तु अन्यग्रन्थान् पश्यामः चेत् यत्र शास्त्रं यथा व्याकरणं वा तर्कशास्त्रं वा तादृशं किमपि पश्यामः चेत् तत्र किं भवति, तत्र क्षम्यताम्, हा, उपरि मूलं भवति, एका रेखा भवति, तस्य अधः व्याख्यानं भवति इति सामान्यतः गतिः। यतोहि तादृशग्रन्थेषु देर् इस् नो स्पेसिफिक् ब्रेक्, यथा इदं व्याकरणस्य अस्य सूत्रस्य इदं व्याख्यानम् इति पृथक् पृथक् न क्रियते, उपरि मूलं गच्छति, अधः व्याख्यानं गच्छति इति क्रमः। अनन्तरं तत्र व्याख्यानस्य अध्ययने प्रतीकम् इति भवति अत्यन्तं मुख्यं. यथा अत्र पश्यामः व्याख्यानमस्ति, मूलमस्ति, व्याख्यानमस्ति. मूले सामान्यतः कानिचन पदानि बोल्ड् मध्ये दत्तानि सन्ति. सो तदेव प्रतीकम् इत्युच्यते. प्रतीकम् इत्युक्ते मूलस्य पदं, मूलश्लोके, मूलग्रन्थे यत् पदमस्ति तत् तत्र तत्र दीयते. इदानीम् अस्माकं यथा वागर्थप्रतिपत्तये इत्यस्य अर्थं न जानामि, तस्य अर्थः ज्ञातव्यः चेत् अधः द्रष्टव्यं कुत्र वागर्थप्रतिपत्तये इत्यस्ति. वागर्थप्रतिपत्तये शब्दार्थयोः सम्यक् ज्ञानार्थम्. सो इफ् यु आर् लुकिङ्ग् फार् स्पेसिफिक् टर्म्स् टु अण्डर्स्टाण्ड् स्पेसिफिक् टर्म्स् इन् द कमेण्टरी, इफ् यु आर् नाट् डोण्ट् वाण्ट् टु रीड् द होल् थिङ्ग्, इफ् यु वाण्ट् टु नो यु रीड् द श्लोक, यु डोण्ट् अण्डर्स्टाण्ड् अ पर्टिक्युलर् वर्ड्, सो यु केन् आल्वेस् सर्च् फार् इट् यूसिङ्ग् द प्रतीकस्. ओके, दिस् इस् वेरी इम्पार्टेण्ट्. विशिष्य शास्त्रग्रन्थेषु यथा अत्र तस्य परमाम्रेडितम् इत्यस्ति, अत्र कुत्र अस्ति इति पश्यन्ति चेत् अत्र अस्ति तस्य परमाम्रेडितम्, तत्रैव तस्य अर्थः दीयते. एवं द्विरुक्तस्य इत्यादिना, सो द्विरुक्तस्य इति अत्र अस्ति. सो मूलं स्वीकृत्य तस्य व्याख्यानं क्रियते. सो द टर्म्स् फ्रम् द मूल आर् आल्वेज् हैलैटेड् इन् आल् मोडर्न् पब्लिकेशन्स्. सो द टर्म् फ्रम् द मूल इस् हैलैटेड् फार् रेफरेन्स्. सो इफ् यु आर् लुकिङ्ग् फार् स्पेसिफिक् थिङ्ग्स् यु हेव् टु लुक् फार् दिस् प्रतीक. Referring to the Vyakhyana is also like that. So you state a pratika and say what he is talking about it. Mallinatha Vyakhyane ayamapi visheshaha etat pratikam pathamaha chet vagartha viva sampraktau jagataha pitarau parvati parameshwarau vagartha pratipattaye vande kim jnatamanena shlokasya anvayaha jnataha. इहान्वयमुखेनैव सर्वं व्याख्यायते मया. मल्लिनाथः सर्वदा अन्वयक्रमेण एव व्याख्यानं करोति. अतः मल्लिनाथस्य व्याख्याने यदि कस्यचित् श्लोकस्य अन्वयः ज्ञातव्यः, अत्यन्तं सरलं मल्लिनाथव्याख्यानं स्वीकृत्य तत्र बोल्ड् प्रतीकं यद्यदस्ति तद् योजयामः चेत् श्लोकस्य अन्वयः ज्ञायते, सः स्पष्टं ददाति. अनन्तरं तस्य तस्य पदस्य अर्थं तत्रैव ददाति. सो प्रतीकम् इति पारिभाषिकं पदं व्याख्यानस्य विषये एतदेव. सो यत्र मूलस्य पदं स्वीक्रियते तदेव प्रतीकम् इति कथ्यते. अवतरणिका इति अन्यः कश्चित् अंशः भवति. यथा इदानीं कश्चित् श्लोकः अस्ति, श्लोकस्य अनन्तरमेव तस्य व्याख्यानम् इति न, तस्मात् किञ्चित् पूर्वमपि किञ्चित् भवति. यथा अत्र पश्यन्तु, द्वितीयः श्लोकः अस्ति क्व सूर्यप्रभवो वंशः क्वचाल्पविषया मतिः इति. ततः पूर्वम् एकं वाक्यं लिखति, सा एव अवतरणिका. इत्युक्ते अयं श्लोकः किमर्थमुच्यते इत्यपि सः श्लोकात् पूर्वमेव कथयति. अतः सम्प्रति कविः स्व अहङ्कारं परिहरति. कवेः अहङ्कारः वा इति पृच्छ्यते चेत् तस्य निवारणार्थं क्व सूर्य इत्यादि श्लोकद्वयेन स्वस्य अहङ्कारपरिहारार्थं श्लोकद्वयं लिखति. एतत्तु काव्ये अस्ति, किन्तु शास्त्रग्रन्थेषु अवतरणिकाभागः अत्यन्तं मुख्यः भवति. बिकास् अवतरणिका गिव्स् यू द बेक्ग्रौण्ड् आफ् वाट् ही इस् स्टार्टिङ्ग्. अवतरणिका इस् वेर् द व्याख्याकर्ता टेल्स् यू वै द न्यू टापिक् और् अ न्यू लैन् इस् बीङ्ग् स्टार्टेड्, वै अ न्यू सूत्र और् वै अ न्यू अधिकरण एण्ड् सो आन्. अतः तस्य भागस्य अवतरणिका इति नाम. So you should not look only after something, you should also look before it. So what is the background for a particular portion or a particular shloka? Avatarnika ityeva avatarika iti namava iti ha tatha api adanti avatarayati avataranam avatarnika, all these are synonyms. which are meant for the background, where the commentary is laying the background for the Moola. Okay. Ataha. Ha. Moola vyakhyana yoho antaram nyatam pratikam avataranika. Tatra vyakhyane vyakhyanasya shaili. Paragraph break ityadi kimapi na bhavati. Prishtha parimitam yavad gachati. Ataha, the break in a vyakhyana is only through the pratika. Pratikam ashritya eva kimapi anmeshtavyam bhavati. Point wise kimapi na diyate. Ityadi samanyataha vyakhyanasya. What to say, the characteristics of a vyakhyana. Eta jani mahache vyakhyanasya patanam saralam bhavati iti uchyate. Iranim sakshat prathama shlokasya vyakhyanam pathamaha. Ayam avataranika bhagaha. Prathama shlokasya avataranika. So before he starts the first shloka, there is an avataranika, because this is also the kavyasyapi arambhaha. Kevalam shlokasya arambhaha chet kinchid uchyate. Ayam tu kavyasya arambhaha. Ataha kinchid vistarena avataranikam dadati mallinathaha. Ahamadau pathami anantaram tasya vivaranam karomi. Iha khalu sakala kavishiromanih kalidasaha. Kavyam yashaser thakrate vyavahara vide shiveta rakshataye. Sadhyah paranirvrataye kanta sammita tayopadesha yuje. Ityadyalankarika vachana pramanyat. Kavyasyaneka shreyas sadhanatam. Kavyalapamsha vajjaye rityasya nisheda shastrasya asatkavya vishayatam cha pashyan. Raghuvamsham mahakavyam chikirshuhu. Chikirshitartha avighna parisamapti sampradaya vichheda lakshana. Phalasadhana bhuta vishishta devata namaskarasya. Shishtachara pariprapatvat. Ashir namaskriya vastunirdesho vapi tanmukham iti ashirvada dhyanyatamasya prabandhamukha lakshanatvat kavya nirmanasya vishishta shabdartha pratipatti moolakatvena vishishta shabdartha yoscha shabdajata masheshantu dhatte sharvasya vallabha artharupanyadakhilan dhatte mugdhendu shekharaha iti vayupurana samhita vachanabalena parvati parameshvarayattat pradarshanat tat pratipitsaya taveva abhivadayate iti ekameva vakyam. Avataranika rupena ekameva vakyam asti kintu tatra bahavaha amshaha mallinathena nibaddhaha. Iha khalu sakala kavishiromanihi kalidasaha. Adau kartuhu namakathayati. Asmakam bahushu granteshu saeva kleshaha kaha rachayita ityeva na jnayate vyakhyanenaiva bahutra jnayate. Ataha sakala kavishiromanihi kalidasaha kavinam agraganyaha kalidasaha kalidasaha iti karta ante asti kim abhivadayate vandate parvati parameshwarau namaskaroti kalidasaha namaskaroti kimartham kavyam yashase arthakrite vyavaharavide shivetarakshataye sadhyah paranirvrataye kanta sammitatayopadeshayuje. Idam vakyam asmabhihi purvam api drishtam. Kavyasya prayojanani kani ityatra prasiddhamidam kavya prakashasya vakyam. Yashase kirtyartham arthakrite dhana sampadanartham vyavahara vide acharasya jnanartham shivetarakshataye amangalasya nashartham sadhyah paranirvrataye paravastunaha praptyartham kanta sammitataya upadeshayuje. Tatra prabhusammita mitra sammita kanta sammita iti prakaratrayena upadeshaha diyate. Kanta sammitataya upadesham datum kavyam prabhavati iti ityadi alankarika vachana pramanyat. Alankarashastre kavyasya prayojanani bahuni uktani. Ataha kavyasya aneka shreyas sadhanatam. So kavyena aneka vidham shreyaha siddhyati. Iti jnatva. Kintu tathaiva smritishu kavyalapamscha varjayet iti nishedha asti. Smritigrantheshu काव्यालापान् वर्जयेत्, काव्यादि अध्ययनं न कुर्यादिति निषेधः अस्ति. तर्हि किमर्थं काव्यम् इति चेत् काव्यालापांश्च वर्जयेत् इत्यस्य निषेधशास्त्रस्य असत्काव्यविषयताम्. असत्काव्यस्य अध्ययनं येन काव्येन धर्मार्थकाममोक्षाणां सिद्धिः न भवति तादृशस्य असत्काव्यस्य निषेधः एव उच्यते. सत्काव्यं तु बहुविधश्रेयस्साधकम् इति पश्यन् कालिदासः पश्यन् इत्यत्र अन्वयः. कालिदासः चिन्तितवान् मया काव्यं करणीयं वा न वा. काव्यालापांश वर्जयेत् इति निषेधः अस्ति किन्तु किं विषयकं तत्? असत्काव्यस्य विषये एव उक्तमस्ति. सत्काव्यस्य तु बहूनि प्रयोजनानि सन्ति अतः अहं काव्यं रचयामि इति विचिन्त्य. सो कालिदासः पश्यन् रघुवंशं महाकाव्यं चिकीर्षुः. अत्र काव्यस्य नाम दत्तमस्ति रघुवंशाख्यं महाकाव्यं चिकीर्षुः, कर्तुम् इच्छुः चिकीर्षुः. सो कालिदासः कर्तुम् इष्टवान्, रघुवंशरूपं महाकाव्यं कर्तुम् इष्टवान् परामर्शं कृत्वा. काव्यस्य अध्ययनं करणीयं वा न वा इति चेत् करणीयम् इति ज्ञात्वा रघुवंशरूपं महाकाव्यं कर्तुम् इच्छन् चिकीर्षितार्थ अविघ्न परिसमाप्ति संप्रदाय अविच्छेद लक्षण फल साधनभूत विशिष्ट देवता नमस्कारस्य शिष्टाचार परिप्राप्तत्वात्. अस्तु, रघुवंशं महाकाव्यं करणीयम्. तर्हि काव्यस्य आदौ किं करणीयम् इति चेत् शिष्टाचार परिप्राप्तम्. गुरूणां व्यवहारेण ज्ञायते, किं ज्ञायते? विशिष्ट देवता नमस्कारः. कश्चित् मङ्गलश्लोकः देवता नमस्कारात्मकः वा अन्यविधात्मकः वा मङ्गलश्लोकः क्रियते, तेन किं जायते? चिकीर्षितार्थ अविघ्न परिसमाप्ति. यत् कर्तुम् इष्यते तस्य कार्यस्य अविघ्नतया समाप्त्यर्थम्. सो टु कम्प्लीट् द टास्क् विथौट् एनी ऑब्स्टेकल्स् इति एकं फलं. संप्रदाय अविच्छेद लक्षण फल द्वितीयं प्रयोजनं भवति. संप्रदायस्य अविच्छेदः, शिष्यपरम्परायां गुरुः यत् करोति तद्दृष्ट्वा शिष्याः अपि कुर्वन्ति. एवं संप्रदायस्य अविच्छेदः इति एकं फलम्, अविघ्नपरिसमाप्तिः इति द्विति फलद्वयम्. सो एतादृशफलसाधनभूतम्, एतादृशं फलं साधयितुं किं क्रियते? विशिष्टदेवतानमस्कारस्य शिष्टाचार परिप्राप्तत्वात्. अस्तु, कश्चित् मङ्गलश्लोकः करणीयः. आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् इति आशीर्वादादि अन्यतमस्य प्रबन्धमुखलक्षणत्वात्. आल्सो प्रबन्धस्य मुखं नाम आरम्भः. द बिगिनिङ्ग् आफ् एनी प्रबन्ध, एनी टेक्स्ट् इस् क्यारेक्टरैज्ड् बै आशीर् नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्. एतदपि दृष्टमस्माभिः. मङ्गलं त्रिविधं भवति, आशीर्वादात्मकः, नमस्क्रियात्मकः, वस्तुनिर्देशात्मकः. सो तेन कारणेन एकं किं मङ्गलं कर्तव्यं, तेन फलद्वयं सिद्ध्यति. द्वितीयम् अलङ्कारशास्त्रे अपि एतादृशत्रिविधः आरम्भः ग्रन्थस्य सूचितः. अतः लक्षणत्वात् काव्यनिर्माणस्य विशिष्टशब्दार्थप्रतिपत्तिमूलकत्वेन काव्यनिर्माणं कथं कर्तुं शक्यते? किम् अपेक्षितं काव्यस्य निर्माणार्थम् इति चेत् विशिष्टशब्दार्थप्रतिपत्तिः. विशिष्टानां शब्दानां, विशिष्टानाम् अर्थानां च अपेक्षा भवति. सो द मेन् थिङ्ग्स् टु क्रियेट् अ काव्य, यू नीड् ब्यूटिफुल् वर्ड्स् वित् ब्यूटिफुल् मीनिङ्ग्स्. विशिष्टानां शब्दार्थानां प्रतिपत्तिः लाभः, तन्मूलकत्वेन काव्यनिर्माणं. So for a kavya, what does a poet need? He needs shabda and artha. And how can he get shabda artha? Vishishta shabda artha yoshcha parvati parameshwaraya tattva darshanat. And how can you get vishishta shabda artha? Tatra vayupuranasya vachanam vadati. Shabda jatam asesham tu dhatte sharvasya vallabha. Artharupam yadakhilam dhatte mugdhendu shekaraha iti vayupurana samhita vachana balena. Vayupurane evam uchyate. Kim uchyate? Asesham shabda jatam. So the entire mass of words, sharvasya vallabha dhatte ka dharati shivasya priya parvati samagram shabda sagaram dharati. So the entire world of words is held by Parvati. Artharupam yadakhilam dhatte mugdhendu shekharaha shivaha tu sarvam artham dharati. Vak parvatyadhina arthaha shivadhinaha iti vayupurana samhita vachana balena. So because of this vayupurana vachana, shabdarthayoho parvati parameshwaraya tattva darshanat. So shabda and artha, a kavi needs shabda and artha, and shabda and artha are residing in Parvati and Parameshwara. Ataha tat pratipitsaya shabdarthayoho pratipattehe iccha. Pratipitsa, it is a sannanta, like gachati, jigamisha, chikitsa, pipasa, patumicha, pipasa, pratipattum icha, labdhum icha, pratipitsaya, taveva abhivadayate. Taveva ityukte, parvati parameshwarau eva namaskaroti. Iti avataranika. Kim kim nyatamanena pashyamaha chet. Avataranikayam keke amshah jnataha. Kavehe namajnatam. Kavishiromanihi kalidasaha. Kavyasya namajnatam. Raghuvamsham mahakavyam. Kavyasya prayojanani jnatani. Kavyam yashase arthakrate vyavaharavide ityadi. Kavyalapan varjayet iti kaschidakshepahastikila. Tarhi katham kimartham kavyadhyayanam iti chet. Tasya akshepasya samadhanam api dattam. Kim asat kavyasya vishaye nishedhaha satkavyena tu shreyasadhanam eva bhavati iti akshepasya samadhanam pramana purasaram dattam. Mangalacharanasya kim phalam iti uktavan. Kim chikirshitasya avighna parisamapti. So completing the desired task without any vighnas, and sampradayasya avichedaha, continuing the tradition, iti phaladvayam mangalena bhavati. Mangalacharanasya kati prabhedaha iti uktavan. Ashir namaskriya vastunirdeshaha iti. Asmin kavye kimartham etadrisham mangalam karoti iti samarthanam kritam kavehe. Kim kavya nirmanartham shabdarthayoho jnanam apekshitam. Shabdarthau parvati parameshwarayoho staha. Ataha parvati parameshwarayoho namaskarasya auchityam iti etavat sarvamapi shastrebhyaha pramanam udhritya darshitavan. Tatra svayam mallinathasya vachanam iti na yatra yatra apekshitam. Kimartham shabdarthayoho siddhyartham parvati parameshwarayoho namaskaraha kartavyaha iti chet tatra vayupuranasya vachanamasti. Mangalam kim iti jnatavyam chet ashir namaskriya ityadi asti. Kavyam kimartham pataniyam iti chet kavyam yashase arthakrite iti sarvatra shastrebhyaha bhinnebhyaha shastrebhyaha pramana purasaram saha kavehe ashayam varnayati. Itham iyam shlokasya avataranika. Anena kim jnatam kalidasaha raghuvamshakaryam kartum icchanna tasya adau shabdarthayoho siddhyartham parvati parameshwarayoho namaskara rupam मङ्गलं करोति. अत्र किमपि प्रष्टव्यमस्ति? शिष्टाचारः कः इति प्रश्नः. शिष्टानाम् आचारः, द ट्रेडिशन् आफ् शिष्टस्. ओके, सो शिष्टाः इत्यस्य बहु विशिष्टाः अर्थाः सन्ति अस्माकं शास्त्रेषु, ये रागादिभिः अवशीकृताः तत्त्वज्ञानिनः, ते शिष्टाः इति सामान्यतः स्वीक्रियते. सो शिष्टास् आर् द नोबल् मेन् हू आर् द स्टाण्डर्ड् फार् आल् अवर् व्यवहार. सो सर्वे शिष्टाः एवं मङ्गलं कुर्वन्ति इत्यतः अस्माभिरपि क्रियते इत्यर्थः. सो शिष्टाचार रेफर्स् टु आल् ट्रेडिशन्स् दट् आर् हेण्डेड् ओवर् बै यु नो द गुरुशिष्य परम्परा आर् द पितापुत्र परम्परा एट्सेट्रा. सद्व्यवहारः इत्यर्थः शिष्टाचारस्य. अग्रे वस्तुतः श्लोकस्य व्याख्यानं पश्यामः. यथा उक्तं व्याख्याने एतन्नास्ति, किं देर् आर् नो ब्रेक्स्, इट् इस् जस्ट् वन् कण्टिन्यूस् लैन्. अस्माकम् अवगमनार्थं मया पृथक् पृथक् दीयते. व्याख्यानं तु इट्स् जस्ट् इट् गोस् कण्टिन्यूस्लि. अभ्यासेन व्याख्यानं स्वयं पठितुं शक्यते. प्लीज डोंट गेट स्केर्ड अवे बै एनी व्याख्यान. द होल पर्पस ऑफ दिस इज टू मेक श्योर यू अंडरस्टैंड हाउ टू अप्रोच अ व्याख्यान एंड यू कैन गेट सो मच आउट ऑफ अ व्याख्यान इफ यू जस्ट स्टडी. प्रथमवारं यदा पठामः किञ्चित् अवगम्यते, द्वितीयवारं पठामः किञ्चित् अधिकम् अवगम्यते. पुनः पुनः पठनेन महान् महत् प्रयोजनं भवति. अस्तु, इदानीं श्लोकस्य वस्तुतः व्याख्यानम् आरभ्यते. वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ. वागर्थाविव इति एकं पदम्. इवेन सह नित्यसमासः विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वञ्चेति वक्तव्यम्, एवम् अन्यत्रापि द्रष्टव्यम्. यथा उक्तं, मल्लिनाथः महान् वैयाकरणः, अतः यत्र यत्र अपेक्षितं तत्र सूत्रं वार्तिकं सर्वं कथयति. अत्र एकं वार्तिकमस्ति, इवेन सह, अत्र टङ्कनदोषः. इवेन सह समासः विभक्त्यलोपः, इव इति अव्ययेन सह समासः भवति, विभक्तेः लोपः न भवति. पूर्वपदप्रकृतिस्वरत्वं, स्वरविषयः व्याकरणे तत्र तत्र भवति, उदात्तः अनुदात्तः स्वरितः इति. तत्र स्वरविषये चेति वक्तव्यम् इति एकं वार्तिकमस्ति व्याकरणे. अनेन वार्तिकेन अत्र समासः भवति इति दर्शयति. वागर्थाविव इति एकं पदम्. अस्य समासस्य विषये अग्रे ज्ञास्यन्ति. एवम् अन्यत्रापि द्रष्टव्यम्. वागर्थाविव, अत्र अनेन वर्णेन यद्यद्दीयते तत्सर्वमपि मल्लिनाथेन प्रतीकरूपेण स्वीकृतम्. वागर्थाविव, शब्दार्थाविव, सम्पृक्तौ नित्यसम्बद्धौ इत्यर्थः. सम्पृक्तौ इत्यस्य नित्यसम्बद्धौ, नित्यसम्बद्धयोः उपमानत्वेन उपादानात्. वागर्थौ इत्यनयोः नित्यसम्बन्धः अस्ति. यथा पार्वती परमेश्वरौ सर्वदा सम्बद्धौ, परस्परसम्बद्धौ, एवं वागर्थौ अपि नित्यसम्बद्धौ, अत एव उपमानत्वेन स्वीक्रियेते. कथं ज्ञायते शब्दार्थयोः सम्बन्धः इति चेत्, नित्यः शब्दार्थसम्बन्धः इति मीमांसकाः, मीमांसाशास्त्रे उच्यते नित्यशब्दार्थसम्बन्धः, शब्दस्य अर्थस्य च सम्बन्धः नित्यः इति. अत एव वागर्थौ नित्यसम्बद्धौ. जगतः, जगतः लोकस्य पितरौ, पितरौ माता च पिता च पितरौ एतत् सर्वमपि व्याख्याने एव अस्ति मया लिखितं न अत्र यद्यत् प्रदर्श्यते सर्वमपि व्याख्याने अस्ति अहम् अन्ते पुस्तकमपि दर्शयामि स्वयं पठितुं शक्नुवन्ति माता च पिता च पितरौ पिता मात्रा इति द्वन्द्व एकशेषः द्वन्द्वे कृते एकशेषः भवति तत्र सूत्रं पिता मात्रा इति पाणिनीयं सूत्रं सूत्रमपि प्रदर्शयति मल्लिनाथः कोशमपि दर्शयति मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ इत्यमरः अमरकोशे एतानि पर्यायपदानि सन्ति एतेन शर्वशिवयोः किमर्थं जगतः पितरौ इति उच्यते तस्य कथनस्य किं वैशिष्ट्यम् इति चेत् शर्वशिवयोः शर्वः ईश्वरः शिवा पार्वती पार्वती परमेश्वरयोः सर्वजगज्जनकतया वैशिष्ट्यम् सर्वस्यापि प्रपञ्चस्य पितरौ इत्यनेन अत्यन्तं विशिष्टौ इष्टार्थप्रदानशक्तिः यदि सर्वः अपि प्रपञ्चः पार्वतीपरमेश्वराभ्यामेव जातः तर्हि यत्किमपि कविः इच्छति तद्दातुं तयोः सामर्थ्यमस्ति सिन्स् दे आर् द क्रियेटर्स् आफ् द एण्टैर् वर्ल्ड् दे केन् इट् इम्प्लैस् दट् दे केन् बेस्टो वाट् एवर् द कवि इस् आस्किङ्ग् फार् इष्टार्थप्रदानशक्तिः परमकारुणिकत्वं च अपि च मातापितरौ सर्वदा करुणापरौ पुत्रः वा पुत्री वा यत्किमपि इच्छति चेत् दातुमेव सर्वदा तेषां तयोः मनः भवति अतः जगतः पितरौ यत् कविः वाञ्छति तद् दातुं तेषां सामर्थ्यमपि अस्ति दातुं मनः अपि भवति जनकत्वात् इति बोधयति व्याख्याकारः शर्वशिवयोः सर्वजगज्जनकतया वैशिष्ट्यम् इष्टार्थप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते सो अयम् अंशः व्याख्यानेनैव ज्ञायते वयं किं कुर्मः अस्तु जगतः पितरौ लोकस्य मातापितरौ इति दृष्ट्वा अग्रे गच्छामः किमर्थं तथा तयोः विशेषणं दीयते इति व्याख्यानपठनेन स्फुरति अग्रे क्षम्यताम् पार्वती परमेश्वरौ इति प्रतीकम् पर्वतस्य अपत्यम् स्त्री पार्वती पार्वती इत्यस्य विग्रहवाक्यम् पर्वतस्य अपत्यम् स्त्री तस्यापत्यम् इति अण् टिड्ढाणै इत्यादिना ङीप् ये व्याकरणं किञ्चित् जानन्ति तेषां बहु उपयोगाय भवति सः सूत्रं वदन् अस्ति पर्वत इति शब्दः अस्ति पर्वतशब्दात् अण् इति प्रत्ययः भवति तस्यापत्यम् इति सूत्रेण अनन्तरं तत्र ङीप् इत्यपि प्रत्ययः भवति टिड्ढाणै इति सूत्रेण येषां तु सूत्रपरिचयः नास्ति प्लीज् इग्नोर् दिस् इफ् यु हाव् अ स्लैट् इन्ट्रोडक्षन् इन् टु व्याकरण यु विल् अप्रिशियेट् दिस् वेरि मच् बिकास् इट् टेल्स् यु एक्साक्ट्लि वाट् इस् हेपनिङ्ग् हौ आर् वि गेटिङ्ग् हौ डस् पर्वत बिकम् पार्वती सो यु हाव् पर्वत अण् प्रत्ययः भवति पर्वत अ तत्र आदिवृद्धिः भवति पार्वत इति अनन्तरम् ई पार्वत ई टिड्ढाण इत्यनेन अपरः प्रत्ययः पार्वती इति भवति पार्वती च परमेश्वरश्च पार्वती परमेश्वरौ व्याख्यानस्य लक्षणे पदच्छेदः पदार्थोक्तिः विग्रहः पार्वती इत्यस्य विग्रहः दत्तः पार्वती परमेश्वरौ इत्यस्यापि विग्रहः प्रदर्श्यते परमशब्दः सर्वोत्तमत्वद्योतनार्थः ईश्वरः इत्युक्ते स एव किमर्थं परमेश्वरः इति उच्यते सर्वोत्तमत्वद्योतनार्थः अनन्तरं पार्वती परमेश्वरः इति वक्तव्यं वा परमेश्वरपार्वत्यौ इति वक्तव्यं वा इति चेत् पार्वती इत्येव आदौ भवेत् इति कथयति मातुः अभ्यर्हितत्वात् अभ्यर्हितं नाम पूजनीयम् सो इन् अवर् परम्परा माता इस् आल्वेज् पूजनीया दट् इस् वै సీతారామౌ లక్ష్మీనారాయణౌ పార్వతీ పరమేశ్వరౌ సర్వత్ర మాతుః ఏవ నామ ఆదౌ స్వీక్రియతే. మాతుః అభ్యర్హితత్వాత్ పూజనీయత్వాత్ అల్పాక్షరత్వాత్ చ ఏతదపి వ్యాకరణ సంబద్ధః ఏవ విషయః. సమాసే కిం పదం పూర్వం భవేద్ ఇత్యత్ర ద్వంద్వ సమాసే నియమః అస్తి అల్పాక్షరం పూర్వం. యస్మిన్ పదే న్యూనాని అక్షరాణి సంతి తత్ పదం పూర్వం భవతి ఇతి నియమః అస్తి. అతః పార్వతీ ఇతి తేనాపి నియమేన భవతి. అభ్యర్హితత్వాత్ మాతుః పూజనీయత్వాదపి పార్వతీ శబ్దస్య పూర్వనిపాతః. వాగర్థ ప్రతిపత్తయే శబ్దార్థయోః సమ్యక్ జ్ఞానార్థం వందే అభివాదయే అహమితి శేషః. కహ అభివాదయే ఉత్తమ పురుషః అస్తి అతః అహం వందే ఇతి శేషః. అనేన శ్లోకస్య ప్రతిపదార్థః సమాప్తః. ప్రత్యేకం పదస్య కహ అర్థః ఇతి ఉక్తవాన్. తత్ర తత్ర కహ వ్యాకరణ విశేషః ఇత్యపి ఉక్తం. అత్ర ఉపమాలంకారః స్ఫుటః ఏవ. స్పష్టతయా ఉపమాలంకారః జ్ఞాయతే. తథోక్తం స్వతసిద్ధేన భిన్నేన సంపన్నేన చ ధర్మతః సామ్యమన్యేన వర్ణ్యస్య వాచ్యం చేదేకగోపమా. ఇదం ఉపమాలంకారస్య లక్షణం. వి ఆల్రెడీ సో వన్ లక్షణ ఆఫ్ ఉపమాలంకార. ఉపమా యత్ర సాదృశ్య లక్ష్మీరుల్లసతి ద్వయోః ఇతి. తల్లక్షణం చంద్రాలోకే కువలయానందే చ అస్తి. ఇదం లక్షణం భిన్నే గ్రంథే ప్రతాపరుద్రీయం ఇతి విద్యానాథస్య గ్రంథః అస్తి. తత్ర ఉపమాయాః లక్షణం ఏవం దీయతే. అతః ఉపమాయాః లక్షణమపి కథయతి. ఉపమాలంకారః తస్య లక్షణం కిం ఇతి కథయతి. స ఏవ అర్థః యత్ర పరస్పరయోః సామ్యం సిమిలారిటీ వర్ణ్యతే సా ఉపమా ఇది సామాన్యార్థః. ప్రాయికశ్చ ఉపమాలంకారః కాళిదాసోక్త కావ్యాదౌ. కాళిదాసస్య కావ్యే ఉపమాలంకారః ప్రాయికః. ప్రాయికః నామ బహుత్ర దృశ్యతే. సో ఉపమా ఇస్ ద మోస్ట్ కామన్ అలంకార ఇన్ కాళిదాస కావ్య ఇది కథయతి. అగ్రే అన్యః ఏకః అంశః అస్తి. ప్రథమం వాగర్థౌ ఇతి భూదేవతాకస్య సర్వగురోః మగణస్య ప్రయోగాత్ శుభలాభః సూచ్యతే. ఛందశాస్త్రే గణాః యే సంతి తేషాం ఫలాని అపి కదాచిద్ ఉచ్యంతే. ఆదౌ వాగర్థా ఇతి సర్వగురుః. త్రయః అపి వర్ణాః గురువర్ణాః. అతః మగణః సర్వగురోః మగణస్య ప్రయోగాత్. సహ మగణః కీదృశః భూదేవతాకః. భూదేవతాకః మగణః ఇత్యుచ్యతే. తేన శుభలాభః సూచ్యతే. గ్రంథస్య అయం మంగళశ్లోకః ప్రథమశ్లోకః. ఆదౌ మగణస్య ప్రయోగేన శుభలాభః సూచ్యతే. తదుక్తం శుభదో మో భూమిమయః మహ మగణః శుభదః మంగళప్రదః భూమిమయః భూదేవతాకః ఇతి కుత్రచిత్ గ్రంథే భవతి. కస్మిన్ గ్రంథే ఇతి న జ్ఞాయతే కింతు ఏవం అస్తి ఇతి ఏకః విశేషః. వకారస్య అమృతబీజత్వాత్. అత్ర ఆదౌ అక్షరమస్తి వ ఇతి. సహ వకారః బీజాక్షరం అమృతబీజం ఇతి కథ్యతే. అతః ప్రచయగమనాది సిద్ధిః. ప్రచయగమనం నామ వృద్ధిః. సో ఇట్ గివ్స్ అభ్యుదయ ఆర్ ఎక్స్టెన్షన్ ఇత్యర్థః. మల్లినాథః తంత్రశాస్త్రే అపి అత్యంతం నిపుణః. అతః సర్వవిధం ఏతాదృశం సప్రమాణం కథయతి. అనేన ప్రథమ శ్లోకస్య వ్యాఖ్యానం సమాప్తం. మయా పూర్వముక్తం వ్యాఖ్యానం పంచలక్షణం. పదచ్ఛేదః కృతః వా పదవిభాగః కథం ఇతి దర్శితవాన్. వాగర్థావివ ఇతి ఏకమేవ పదం. న విభాగః న కర్తవ్యః ఇతి దర్శితవాన్. పృథక్ పృథక్ పదాని దర్శితాని. పదార్థస్య కథనం. శ్లోకే ప్రయుక్తానాం సర్వేషామపి పదానాం అర్థం ఉక్తవాన్. విగ్రహః समासस्य तद्धितस्य सर्वस्यापि विग्रहं प्रदर्शितवान्. अन्वयक्रमः, अन्वयक्रमेणैव तेन व्याख्यानं बै डिफाल्ट् तथैव करोति, अतः वाक्ययोजना कृता. आक्षेपस्य समाधानं, यत्र शक्यते यथा काव्यालापांश्च वर्जयेद् इति निषेधः अस्ति किल इति चेत् तस्य उत्तरमपि दत्तवान्. एवञ्च व्याख्यानम् इत्यस्य सर्वाणि लक्षणानि मल्लिनाथस्य व्याख्याने दृश्यन्ते. अद्य वयं रघुवंशस्य मङ्गलश्लोकस्य मुखेन व्याख्यानस्य स्वरूपं किं भवति इति ज्ञातवन्तः. महाव्याख्याकारस्य मल्लिनाथस्य विषये केचन अंशाः ज्ञाताः. मल्लिनाथस्य व्याख्यानम् आधृत्य प्रथमश्लोकस्य व्याख्यानमपि दृष्टम्. वस्तुतः रघुवंशस्य सञ्जीविनी व्याख्यानस्य पुस्तकमेव उपलभ्यते. इट् इस् अवेलेबल् बोत् एस् ऐ मीन् इफ् यु वाण्ट् टु बै, देर् इस् एन् एडिशन् बै एम् आर् कळे. देर् आर् मेनी एडिशन्स् आफ् रघुवंश एक्चुअलि. So most of them come with the Vyakhyana of Mallinatha. Samanyataha Mallinathasya Vyakhyana Sahitam Eva Bhavati. This is one of the editions by M.R. Kale. Okay, this is one of the popular editions where he gives the Vyakhyana. He also gives some notes. Atra Sarvesham Shlokanam Anglabhashaya Arthaha Asti Tena Sampadakena Kritam Vivaranam Api Labhyate. So if you look later, you'll find that sarvesham api arthaha bhavati. Notes ityanena vishishtam vivaranam api sahadadati. Yatha idanim. Udaharanartham darshayami. Yadi vyakhyanam patitva kinchit na jnayate, tada atra angla bhashayam saha bahunamshan api kathayati. Okay. रघुवंशः तत्र टैटल् सिग्निफिकेन्स् किम् इत्यादि, इट्स् वेरि यूस्फुल्. दिस् बुक् इस् अवेलेबल् फार् फ्री डौन्लोड् इन् archive.org. सो अस्य लिङ्क् अहं ददामि. सो इफ् यु हेव् अ फिसिकल् बुक् यु केन् आल्वेस् बै इट् आर् यु केन् डौन्लोड् इट् एण्ड् यु केन् रेफर् टु इट्. इतः परं द्वितीयसर्गस्य ये ये श्लोकाः सन्ति तेषां वयं सञ्जीविन्या सह अध्ययनं कुर्मः. सो द रघुवंश आफ् कालिदास वित् सञ्जीविनी, दश सर्गाणां एम् आर् कळे महोदयेन सम्पादितम् इदं पुस्तकम्. ओके, सो इट्स् अ वेरि ओल्ड् एडिशन् विच् इस् अवेलेबल् बट् स्टिल् अ रिलयबल् एडिशन्. अस्तु, इदानीं मङ्गलेन समापयामः. अनन्तरं प्रश्नाः सन्ति चेत् पृच्छन्तु. समयः अतीतः, अतः ये गन्तुमिच्छन्ति मङ्गलं कृत्वा गन्तुमर्हन्ति. वागर्थविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ. गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. ओके, केऽपि प्रश्नाः सन्ति वा? अद्य पठितस्य विषये कृपया पुनरेकवारं स्वयं व्याख्यानं पठन्तु, तदा इतोपि सम्यक् अवगम्यते. अस्तु, तर्हि अग्रिम सप्ताहे मोहन् महोदय.
नमस्कारः. In English, there is a slokam on Vinayaka, no? Antara yati mirava prashantaye.
Mallinathasya shloka.
Yes. Is it possible for you to, I mean, just explain one or two lines later or whenever you
will? You want that shloka? Antara yati mirava prashantaye.
Yes. Shantaye, shanta bhavan, which India will go.
Okay, it should be here.
It is. Yes.
Yes, yes. It is the first, he opens that, this, it is a Ganesha Namaskara, which is the
correct.
which is at the beginning of the Sanjeevini Vyakhyanam.
Mm-hmm.
So.
Yes, I'm very here.
So, antaraya timiropashantaye shantapavanamachindyavaibham
tannaram
vabhushikunjaram mukhe manmahe kemapi hindiyam maha. So, manmahe ityasya vayam chintaya maha bhavaya maha iti kam iti chet vapushi naram mukhe kunjaram shariram manushyasya mukhe kunjaram kunjaraha nama gajaha gajananam namaskurmaha tadapi kimapi tundilam maha tundilam tundam nama udaram so as vak kim udaram lambodaraha iti kathyate taneva tundilam with a fat belly ityarthaha tundilam maha maha tejaha so he doesn't specify what it is so I bow down to that kimapi ityasya avarnyam ityarthaha mahaha to that tejas which is identified by that lambodaratva and gajanana antaraya timira upashantaye timiraha andhakaraha so for the destruction of the darkness called antaraya antarayaha vighnaha vighna rupasya andhakarasya nashanartham shanta pavanam atyantam shantam asti pavanam pavitram asti achintya vaibhavam yasya vaibhavam which is of incomparable vaibhava so tadrisham tejaswarupam ganesham namami ityartha
dhanyavada
so it's one of the popular ganesha stutis this shloka was composed by mallinatha व्याख्यानस्य पाठान्तराणि अपि सन्ति वा इति प्रश्नः भवन्त्येव निश्चयेन यतोहि अस्माकं सर्वाण्यपि सर्वे अपि ग्रन्थाः ताडपत्रेभ्यः सम्पादिताः सो इट् इस् क्वैट् पासिबल् टु हाव् पाठान्तराणि कदाचित् सम्पादकैः तत्रैव दीयन्ते यूजुवलि इफ् इट् इस् अ क्रिटिकल् एडिशन् द सम्पादकस् दे विल् गिव् अ नोट् at the bottom if you look at this so there will be some notes where they will indicate if there are paathantaras paathantarani bhavantyeva nishchayena astu milamaha tarhi agrima saptahe.